नमः सर्वेभ्यः. अद्य कोविद वर्गस्य षोडशः पाठः, मे मासस्य अष्टादशः दिनाङ्कः. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मिनमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये, जगतः पितरौ वन्दे पार्वती परमेश्वरौ. महाकवेः कालिदासस्य रघुवंश महाकाव्यस्य अध्ययनम् अस्माभिः आरब्धम्. तत्र कवेः विषये किञ्चित् ज्ञातम्. काव्यस्य महाकाव्यं नाम किं भवति इति ज्ञातवन्तः. तत्र रघुवंशस्य मङ्गलश्लोकः एषः, वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये, जगतः पितरौ वन्दे पार्वती परमेश्वरौ इति नमस्काररूपकम् इदं मङ्गलम्. अस्य अर्थं ज्ञातवन्तः, मल्लिनाथव्याख्यानम् अपि पठितवन्तः. कोविदवर्गे रघुवंशस्य द्वितीयसर्गस्य केचन श्लोकाः सन्ति, अतः अद्य द्वितीयसर्गस्य अध्ययनम् आरभामहे. ततः पूर्वं गतवर्गे मल्लिनाथस्य व्याख्यानम् अधीतं, तदाधारेण केचन प्रश्नाः पृष्टाः, तस्य उत्तरं किञ्चिदिव दृष्ट्वा अग्रे गच्छामः. ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु. कीदृशस्य काव्यस्य अध्ययनं श्रेयस्करं, कीदृशं काव्यं वर्जनीयम् इति. जयश्री
भगिनी. नमस्ते भगिनी. श्रेयसाधकस्य काव्यस्य अध्ययनं श्रेयस्करम्, असत्काव्यं वर्जनीयम्.
असत्काव्यं वर्जनीयं, सम्यक्. पुरुषार्थसाधकस्य सत्काव्यस्य अध्ययनं श्रेयस्करम्, असत्काव्यं वर्जनीयम् इत्येतावत् मल्लिनाथव्याख्यानेन ज्ञायते. तत्र सत्काव्यं किम्, असत्काव्यं किम् इति अग्रे कदाचित् अन्येषु अलङ्कारशास्त्रग्रन्थेषु तस्य चर्चा अस्ति. सामान्यतः तदेव अस्माभिः पूर्वं दृष्टं. पुरुषार्थधर्मार्थकाममोक्षाणां सिद्ध्यर्थं तदाशयेन यानि काव्यानि प्रणीतानि तानि सत्काव्यानि. केवलं मनोरञ्जनार्थम् अथवा दुष्टव्यवहारस्य विजृम्भणार्थं यानि काव्यानि भवन्ति तानि असत्काव्यानि इति सामान्यज्ञानं भवति. काव्यस्य आदौ देवतानमस्कारस्य किं प्रयोजनम्? निर्मला भगिनी.
नमस्ते. काव्यद्वयोः देवतानमस्कारः किं प्रयोजनम्? चिकीर्षितस्य कार्यम् अथवा काव्यं लेखितुं कार्यम् अध्ययन अविघ्नतया परिसमाप्त्यर्थम् एकं प्रयोजनम्. द्वितीयं सम्प्रदाय परम्परायाः अविच्छेदनलक्षणं प्राप्तुं देवतानमस्कारः प्रयोजनं भविष्यति भवति.
सम्यक् सम्यक्. चिकीर्षितार्थस्य अविघ्नतया परिसमाप्तिः इति एकं प्रयोजनं, सम्प्रदायस्य अविच्छेदः इति द्वितीयं प्रयोजनम्. उत्तमम्. अनन्तरं वागर्थप्रतिपत्तये पार्वतीपरमेश्वरयोः वन्दनं किमर्थम्? प्रिया भगिनी.
शब्दजातम् अशेषं तु दत्ते सर्वस्य वल्लभा, अर्थरूपं यदखिलं दत्ते मुग्धेन्दुशेखरः इति वायुपुराणः. पार्वती समग्रं शब्दान् धरति, शिवः तेषाम् अर्थान् धरति, अतः वागर्थप्रतिपत्तये पार्वती परमेश्वरयोः वन्दनं क्रियते.
सम्यक्, बहु उत्तमम्. शब्दजातम् अशेषं तु धत्ते सर्वस्य वल्लभा, अर्थरूपं यदखिलं धत्ते मुग्धेन्दुशेखरः इति वायुपुराणस्य वचनमस्ति. शब्दार्थौ पार्वती परमेश्वरायत्तौ, अतः तयोः नमस्कारेण शब्दार्थयोः सिद्धिः भवति इत्याशयः. पार्वती परमेश्वरयोः जगतः पितरौ इति विशेषणेन किं किं बोध्यते? महालक्ष्मी
नमस्ते. जगतः जगतः लोकस्य पितरौ माता च पिता च पितरौ पिता मात्रा इति द्वन्द्वैकशेषः माता पितरौ पितरौ सर्वं मातार पितरौ प्रसूजनयितारौ इत्यमरः एतेन सर्वश्रेयोः सर्वजन सर्वजगज्जन कथया वैशिष्ट्यम् इष्टार्थप्रधानशक्तिः परमकारुण्यकत्वं च बोध्यते.
सर्वजगज्जनकतया वैशिष्ट्यं तौ सर्वस्यैव जगतः पितरौ, न केवलं कस्यचित् पुरुषस्य इति. इष्टार्थप्रधानशक्तिः, यौ लोकस्यैव सृष्टौ कारणीभूतौ, सर्वमपि इष्टार्थं प्रदातुं शक्तौ, परमकारुणिकत्वं च. माता पिता इत्युक्ते सर्वदा अपत्यस्य हितम् एव इच्छतः, अपत्यं यद्यदिच्छति तत् दातुं प्रयत्नं कुरुतः, अतः तत्सर्वमपि जगतः पितरौ इति विशेषणेन ज्ञायते. अन्तिमः प्रश्नः, रघुवंशस्य आदौ कः गणः प्रयुक्तः, तस्य कः विशेषः? अन्ये केऽपि वक्तुमिच्छन्ति? रामानुजं महोदय.
मगनः प्रयुक्तः, तस्य विशेषः शुभलाभः.
सम्यक्. तत्र आदौ मगणः, सर्वगुरुः मगणः, भूदेवता इत्युच्यते, तेन शुभलाभः इति मल्लिनाथः स्वव्याख्याने कथयति. इदानीं द्वितीयसर्गस्य आरम्भतः पूर्वं रघुवंशे किं किम् अस्ति इति अत्यन्तं स्थूलरूपेण एकवारम् अवलोकयामः. वस्तुतः पूर्वमेव परिचयस्तरे कुत्रापि रघुवंशस्य कथा तु अधीता गद्यरूपेण, पुनःस्मारणार्थं स्थूलरूपेण किं किम् अस्ति रघुवंशे इति. तत्र प्रथमे सर्गे रघुवंशे ये राजानः तेषां वैशिष्ट्यं, दिलीपसुदक्षिणयोः वसिष्ठाश्रमगमनम् इत्येषः भागः अस्ति. दिलीपः पुत्रः नास्ति इति कारणेन तस्य कारणं ज्ञातुं, परिहारं प्राप्तुं कुलगुरोः वसिष्ठस्य आश्रमं गच्छति. द्वितीयः सर्गः नन्दिनीवरप्रदानम् इत्यस्ति. दिलीपः नन्दिन्याः कामधेनुसुतायाः धेन्वाः सेवां कृत्वा पुत्ररूपं वरं प्राप्नोति. स एव सर्गः अस्माभिः पठ्यते. तृतीये सर्गे दिलीपस्य पुत्रः रघुः, तस्य जननं, दिलीपस्य अश्वमेधयागः तद्विषये अस्ति. चतुर्थे सर्गे रघोः दिग्विजयः, रघुः भारते सर्वासु दिक्षु गत्वा सर्वान् राज्ञः पराजित्य प्रत्यागच्छति. तत्र कालिदासस्य वर्णनकौशलं, प्रत्येकं प्रदेशं सः बहु सम्यक् वर्णयति भारते. पञ्चमे सर्गे कौत्सस्य वृत्तान्तः अस्ति, यः रघुम् आगत्य धनार्थं प्रार्थयते. रघोः पुत्रः अजः स्वयंवरार्थं गच्छति, तस्य वर्णनमस्ति. षष्ठे सर्गे इन्दुमती स्वयंवरः, रघुवंशस्य अत्यन्तं प्रसिद्धेषु भागेषु सः अपि अन्यतमः, इन्दुमत्याः स्वयंवरः, तत्र आगतानां महाराजानां वर्णनम् इत्यादि अस्ति. सप्तमे सर्गे अजस्य इन्दुमत्या सह विवाहः भवति, गन्धर्वैः सह युद्धं भवति. अष्टमे सर्गे इन्दुमती म्रियते, तत्कारणेन अजविलापः अपि रघुवंशे अत्यन्तं प्रसिद्धः भागः करुणारसपूर्णः. नवमे सर्गे दशरथ अजस्य पुत्रः दशरथः, दशरथस्य राज्यवर्णनं, तस्य शापः, तत्र श्रवणकुमारस्य प्रसङ्गः इत्यादि. दशमे सर्गे रामायणस्य कथारम्भः, पुत्रकामेष्टियागः, रामादीनां जननं भवति. एकादशे सर्गे बालकाण्डस्य कथा, विश्वामित्रेण सह रामलक्ष्मणौ गच्छतः, तत्रत्य प्रसङ्गः वर्ण्यते. द्वादशे सर्गे अयोध्याकाण्डादारभ्य युद्धकाण्डपर्यन्तं, रावणवधपर्यन्तमपि सर्वं कालिदासः पश्यन्ति चेत् रामायणस्य कथां बहु विस्तृततया न वदति, यतोहि तत्र महर्षिणा वाल्मीकिना एव बहु सम्यक् वर्णनं कृतम् इत्यतः रामायणस्य भागः न्यूनः एव. रामायणे अज्ञाताः ये प्रसङ्गाः यथा अजविलापः, नन्दिनीवरप्रदानम्, एतादृशेषु कालिदासस्य कवित्वशक्तिः सम्यक् द्रष्टुं शक्यते. त्रयोदशे सर्गे पुष्पकप्रयाणं, तदपि बहु सम्यगस्ति तत्र वर्णनं. पुष्पकम् आरुह्य रामः लङ्कायाः अयोध्यां प्रति आगच्छति. सो एन् एरियल् सर्वे आफ् द एण्टैर् पात् फ्रम् लङ्का टु अयोध्या, तत्र कथं भवति वायु मार्गे प्रयाणं कथं भवति, तत्र किं किं दृश्यते इत्यादि बहु सम्यक् वर्णयति. चतुर्दशे सर्गे सीतापरित्यागः, पञ्चदशे रामस्य वैकुण्ठगमनम्, उत्तरकाण्डस्य कथा, लवणासुरस्य वधः, शम्भूकस्य वधः इत्यादि सर्वमपि अस्ति. तदनन्तरं रामस्य पुत्रादीनां, षोडशे सर्गे रामस्य पुत्रः कुशः, तस्य कुमुद्वत्या सह विवाहः वर्ण्यते. सप्तदशे सर्गे कुशस्य पुत्रः अतिथिः इति, तस्य राज्यभारः, तत्र राजनीतेः वर्णनम् इत्यादि अस्ति. अष्टादशे सर्गे अतिथेः पुत्रपौत्रादयः एकविंशतिः राजानः. सो ए वेरि ब्रीफ् इट्स् जस्ट् अ लिस्टिङ्ग् आल्मोस्ट् आफ् सेवरल् रूलर्स् हु वर् डिसेण्डेण्ट्स् आफ् अतिथि. ऊनविंशः अथवा नवदशः सर्गः, तत्र अग्निवर्णः इति कश्चित् राजा, सः वस्तुतः रघुवंशस्य अत्यन्तं दुराचारी राजा. तस्य राज्यभारे, तस्य शासनकाले कथं सर्वेषां कष्टमासीत् इति वर्णयति. अग्निवर्णः म्रियते, तस्य पत्नी गर्भवती अस्ति, तावता काव्यं समाप्यते. सो देर् इस् नो युनो क्लियर् एण्डिङ्ग् टु द काव्य. इट् लुक्स् एस् इफ् द काव्य इस् एण्डिङ्ग् बिकास् रघुवंशः महान् वंशः, तस्यापि कथम् अधोगतिः इति अग्निवर्णस्य वर्णनं करोति, किन्तु काव्यं समाप्तम् इति न भाति काव्यस्य अन्ते. अत एव अग्रिमः भागः नष्टः वा कथञ्चित् लुप्तः वा, कालिदासेन न लिखितं वा, अथवा स एव तावती मृतः वा इत्येवं बहुधा आशङ्काः सन्ति. अयं रघुवंशस्य कथा सङ्ग्रहः. तत्र प्रथमसर्गे किं जातम् इति पश्यामः. रघुवंशस्य राज्ञां वैशिष्ट्यं बहु सम्यक् वर्णयति. वस्तुतः रघुवंशस्य प्रथमसर्गः सर्वैः अध्येतव्यः. इट्स् अ वेरि 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 नैस् पोर्शन्. ओके, तत्र अनुष्टुप् श्लोकाः, लघुश्लोकाः, किन्तु बहु सम्यक् रघुवंशस्य वर्णनं सर्वमपि बहु सम्यगस्ति प्रथमसर्गे. अस्माकं व्योमपाठशालायां रघुवंशस्य प्रथमसर्गस्य पाठाः सन्ति, विद्याभगिन्या कृताः पाठाः संस्कृतेनैव कृताः सन्ति. अतः यथासमयं तदपि पठन्तु. बहु उत्तमः काव्यभागः सः. प्रायेण संस्कृतस्य अध्ययने आदौ रघुवंशस्य प्रथमसर्गः अधीयते. तदनन्तरं दिलीपस्य गुणवर्णनमस्ति. दिलीपः अत्र कालिदासेन स्वीकृतेषु रघुवंशस्य राजसु प्रथमः दिलीपः, तस्य गुणवर्णनं क्रियते. अनपत्यतया दुःखितः दिलीपः पत्न्या सुदक्षिणया सह वसिष्ठाश्रमं गच्छति. पुत्राः न सन्ति अग्रे राज्यस्य का गतिः इति खिन्नः कुलगुरुं वसिष्ठं प्रार्थयितुं तस्य आश्रमं गच्छति तस्य प्रयाणस्य वर्णनमस्ति तत्र प्राप्य वसिष्ठं यदा पृच्छति वसिष्ठः ज्ञानदृष्ट्या जानाति किं केन कारणेन राज्ञः सन्ततिः नास्ति तत्र कदाचित् दिलीपः देवलोकं गत्वा प्रत्यागच्छन् मार्गे कामधेनुः आसीत् दिलीपः तस्याः वन्दनं प्रदक्षिणादिकं न कृतवान् तदा कुपिता कामधेनुः तं शप्तवती तदा तत्र मार्गे आकाशगङ्गा आसीत् तस्याः शब्दस्य कारणेन दिलीपः न श्रुतवान् प्रतिबध्नातिः श्रेयः पूज्यपूजा व्यतिक्रमः इति कविः कथयति ये पूज्याः तेषां पूजायां कश्चित् दोषः क्रियते चेत् निश्चयेन श्रेयसः प्रतिबन्धकं भवति तेन कारणेनैव तव सन्ततिः नास्ति इति कारणं कथयति तर्हि कः परिहारः इति चेत् तत्र इदानीं कामधेनुः तु पाताललोके अस्ति यज्ञार्थं किन्तु तस्याः पुत्री नन्दिनी इति वसिष्ठाश्रमे एव धेनुः अस्ति वसिष्ठस्य यज्ञ क्रियायां साहाय्यार्थं होतुराहुतिसाधनम् इत्युच्यते तादृशी नन्दिनी इति काचित् धेनुः तत्र वसिष्ठस्य आश्रमे अस्ति तस्याः सेवां करोति चेत् तस्याः अनुग्रहेण पुत्रप्राप्तिः भविष्यति इति वसिष्ठः दिलीपं सूचयति तत्र केचन श्लोकाः सन्ति सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः आराधय सपत्नीकः प्रीता कामदुघा हि सा तस्याः सुरभेः सुतां पुत्रीं नन्दिनीं प्रतिनिधिं कृत्वा सो मेकिंग नन्दिनी एज अ रिप्रेजेंटेटिव ऑफ सुरभि ऑफ हर मदर सपत्नीकः आराधय पत्न्या सह तस्याः सेवां कुरु प्रीता सा नन्दिनी यदि तुष्टा भवति तर्हि कामदुघा तव या इच्छा निश्चयेन तां पूरयति इति वादिन एवास्य होतु राहुतिसाधनम् अनिन्द्या नन्दिनी नाम धेनुरावृते वनात् यदा वसिष्ठः एवं वदन्नासीत् तदा एव तस्य यज्ञक्रियायां सहकारिणी सा नन्दिनी इति धेनुः वनात् प्रत्यागच्छति तदा वसिष्ठः कथयति अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् नाम्नि कीर्तिते यदा नन्दिनी इति नाम उक्तं तदा एव सा प्राप्ता वनात् प्रत्यागता अतः अदूरवर्तिनीं सिद्धिं विगणय तव इच्छापूर्तिः बहु दूरे नास्ति शीघ्रमेव तव इच्छा फलिष्यति इति जानीहि वयमपि कुर्मः किल सामान्यव्यवहारे कस्यचित् विषये सम्भाषणं कुर्मः झटिति स एव आगच्छति तथा यदा वसिष्ठः नन्दिन्याः विषये वदन्नासीत् तदा एव सा आगता अतः निश्चयेन तव इच्छा फलिष्यति इति गुरुः वदति वन्यवृत्तिरिमां शश्वत् आत्मानुगमनेन गां विद्याम् अभ्यसनेनेव प्रसादयितुमर्हसि उत्तमः श्लोकः वसिष्ठः दिलीपं वदति एतां गाम् आत्मानुगमनेन वन्यवृत्तिः नाम वने ये वसन्ति तेषां वृत्तिः इव यथा सामान्याः गोपालकाः भवन्ति तथा भवान् एतां धेनुं सेवस्व सेवताम् कथम् इति चेत् विद्याम् अभ्यसनेन इव विद्या अस्ति विद्यायाः प्रसादः यदि भवेत् तर्हि किं करणीयम् अभ्यासः करणीयः विद्या स्वयं न आगच्छति अस्माभिः विद्याम् अनुसृत्य पुनः पुनः अभ्यासः क्रियते चेत् विद्या प्रसीदति एवमेव भवान् एतां धेनुम् अनुसृत्य तां प्रसादय इति वसिष्ठः दिलीपम् आदिशति कथं सेवा करणीया इत्यपि वदति प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः। यदा धेनुः प्रतिष्ठते तदा भवता गन्तव्यं, मम त्वरा अस्ति इति धेनोः प्रस्थानं न कारणीयम्। सा यथा इच्छति तथा करोति, भवता तस्याः इच्छाम् अनुसृत्य सेवा करणीया। प्रस्थितायां प्रतिष्ठेताः स्थितायां स्थितिमाचरेः, सा तिष्ठति चेत् भवता अपि स्थातव्यम्। निषण्णायां निषीदास्यां, यदा सा उपविशति तदा भवान् उपविशतु। पीताम्भसि पिबेरपः, यदा सा जलं पिबति तदा भवतः तृष्णाशमनमपि करणीयम्। सर्वमपि धेनोः इच्छाम् अनुसृत्य कुरु इति वसिष्ठः वदति। इति आप्रसादादस्याः त्वं परिचर्यापरो भव, अविघ्नमस्तु ते स्थेयाः पितेव धुरिपुत्रिणाम्। अतः यावत्कालं नन्दिनी अनुगृह्णाति तावदपि एतादृशीं परिचर्यां कुरु, तव कार्ये विघ्नाः मा भवन्तु। त्वं पुत्रिणां धुरिस्थेयाः, ये पुत्रवन्तः तेषाम् अग्रगण्यः भवतु भवान्, अर्थात् पुत्रलाभः भवतु इति आशीर्वचनेन सह वसिष्ठः दिलीपं विसर्जयति। तस्यां रात्रौ दिलीपः सुदक्षिणा च तत्रैव आश्रमे रात्रिं नीतवन्तौ। ततः प्रातःकाले किं भवति इत्यनेन द्वितीयसर्गस्य कथा आरभ्यते। अयं द्वितीयसर्गस्य प्रथमः श्लोकः। अथ प्रजानाम् अधिपः प्रभाते जाया प्रतिग्राहितगन्धमाल्यां वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच। कोऽपि अनुवक्तुमिच्छति? प्रिया भगिनी। अथ प्रजानाम् अधिपः प्रभाते,
अथ प्रजानाम् अधिपः प्रभाते, अथ प्रजानाम् अधिपः प्रभाते।
अथ प्रजा इत्यत्र विसर्गः नास्ति, अतः अथ प्रजा इति न भवेत्। अथ प्रजानाम् अधिपः प्रभाते,
अथ प्रजानाम् अधिपः प्रभाते, अथ प्रजानाम् अधिपः प्रभाते।
जाया प्रतिग्राहितगन्धमाल्याम्,
जाया प्रतिग्राहितगन्धमाल्याम्, जाया प्रतिग्राहितगन्धमाल्याम्।
वनाय पीतप्रतिबद्धवत्साम्,
वनाय पीतप्रतिबद्धवत्साम्, वनाय पीतप्रतिबद्धवत्साम्।
यशोधनो धेनुमृषेर्मुमोच,
यशोधनो धेनुमृषेर्मुमोच, यशोधनो धेनुमृषेर्मुमोच।
पुनः अथ प्रजानामधिपः प्रभाते जाया प्रतिग्राहितगन्धमाल्याम्,
अथ प्रजानामधिपः प्रभाते जाया प्रतिग्राहितगन्धमाल्याम्। अथ प्रजानाम् अधिपः प्रभाते जाया प्रतिग्राहितगन्धमाल्याम्।
वनाय पीतप्रतिबद्धवत्साम् यशोधनो धेनुमृषेर्मुमोच,
वनाय पीतप्रतिबद्धवत्साम् यशोधनो धेनुमृषेर्मुमोच, वनाय पीतप्रतिबद्धवत् साम् यशोधनो धेनुमृषे मुमोच।
सम्यक्, धन्यवादः। तत्र श्लोकस्य अध्ययने प्रथमं पदं भवति पदविभागः सन्धिः इति। कोऽपि करोति वा? ఉమాదేవి భగిని అన్మ్యూట్ కరణీయం.
నమస్తే. అథ ప్రజాన అధిపః ప్రభాతే ఛాయా ప్రతిగ్రాహిత గంధమాల్యాం వనాయ పీత ప్రతిబద్ధవత్సాం యశోధన యశోధనః 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 దేనుం ఉషే ఉషేహే మోచ
ముమోచ. సమ్యక్. అథ ప్రజానాం అధిపః ప్రభాతే జాయా ప్రతిగ్రాహిత గంధమాల్యాం. ఏకమేవ పదం, తత్ర చత్వారః అవయవాః సంతి. జాయా ప్రతిగ్రాహిత గంధమాల్యాం, వనాయ పీత ప్రతిబద్ధ వత్సాం, యశోధనః ధేనుం ఋషేః ముమోచ. సంధిః కుత్ర అస్తి అత్ర?
ఛాయ ప్రతిగ్రాహిత గంధమాల్యాం. జస్ట్ ఎ మినిట్. వనాయ పీత ప్రతిబద్ధ వత్సాం యశోధనో, దట్ ఈస్ విసర్గ సంధి. దేనుం దేనుం ఋషేహే ఋషి దేనుం ఋషిహే ఇయర్ వన్ సంధి. దేనుం ఋషేహే దట్ ఈస్ ఋషేహే నో సంధి ఇయర్
ఋషేహే ముమోచ
మోచ నో సంధి. ఐ డిడ్ గెట్ ఎనీ సంధి ఐ థింక్.
No, that's all. Rishehe Mumocha, there also there is a Visarga Sandhi. That's all. Tatra Yashodhanaha Ityatra Visargasya Uttvam Ubhayatrapi Asti Yashaha Dhanaha Yashas Dhana Iti Tatrapi Visargasya Uttvam Gunaha Ataha Yashodhanaha Dhenum Tatrapi Visargasya Uttvam Yashodhano Dhenum Iti Bhavati. ఋషేహే ముమోచ ఋషేర్ ముమోచ ఇత్యత్ర విసర్గస్య రేఫః అస్తి. అన్యత్రాపి అత్ర పీత ప్రతిబద్ధ వత్సాం ఇత్యత్ర అనుస్వార సంధిః అస్తి. అధిపః ప్రభాతే ఇత్యత్ర ఉపధ్మానీయః భవతి. తత్తు సామాన్యం అనుస్వార సంధిః సర్వత్ర భవతి ఇత్యతః విశిష్య న ఉక్తం. అధిపః ప్రభాతే యద్యపి లేఖనం కాలే విసర్గః లిఖ్యతే ఉచ్చారణ కాలే ఉపధ్మానీయస్య అధిపః ప్ర అర్ధవిసర్గస్య ఉచ్చారణం క్రియతే. ఏవం ఏతాని పదాని సంతి. ద్వితీయమస్తి సామాన్య అర్థః కః ఇతి చేత్, ప్రజానాం అధిపః రాజా దిలీపః ఇత్యర్థః. ప్రభాతే ప్రాతఃకాలే ఋషేహే ధేనుం ఋషేహే ధేనుః సా నందిని తాం వనాయ ముమోచ వనం గంతుం సహ త్యక్తవాన్ ఇత్యర్థః. తతః పూర్వం కిం జాతం? జాయా జాయా ఇత్యుక్తే పత్ని, దిలీపస్య పత్ని సుదక్షిణ గంధ పుష్పాదినా పూజాం కృతవతీ ధేనోః. అనంతరం వత్సః నందిన్యాః వత్సః లఘు శిశుః గోః శిశోః వత్సః ఇతి నామ. కాఫ్ పీత ప్రతిబద్ధ సహ మాతుః క్షీరం పీతవాన్ అనంతరం సహ బద్ధః. సహ ఇత్యోపి అత్యంతం లఘుః ఇత్యతః సహ వనం న గచ్చతి. సహ క్షీరం పీతవాన్ తత్రైవ గోష్ఠే బద్ధః. ధేనుం రాజా త్యక్తవాన్ ఇత్యర్థః. ప్రాతఃకాలే సుదక్షిణ దిలీపస్య పత్ని తాం ధేనుం గంధమాల్యాదిభిః పూజితవతీ. వత్సః మాతుః క్షీరం పీత్వా గతః. తతః రాజా దిలీపః ధేనుం వనాయ గంతుం మోచితవాన్ ఇతి సామాన్య అర్థః. అగ్రే వాక్యవిశ్లేషణం ఇత్యుక్తే విభక్తిః. క్రియాపదం కిం? కాసు కాసు విభక్తిషు పదాని సంతి ఇతి వక్తవ్యం. कोऽपि वक्तुमिच्छति? निर्मला भगिनी
नमस्ते भगिनी. ऐ विल् ट्रै टु डु इट्.
चिन्ता नास्ति. क्रियापदं किम्?
मुमोच.
मुमोच क्रियापदं. मुमोच सम्यक्. प्रथमा विभक्तौ किं किम् अस्ति?
अधीपः.
अधीपः.
अधीपः. यशः.
एकमेव पदं.
यशोधनः.
अधिपः यशोधनः इति प्रथमा विभक्तिः. तदेव कर्तृपदम्. अधिपः इत्युक्ते राजा. मुमोच. द्वितीया विभक्तौ किं किम् अस्ति?
अत प्रजानाम् अधिपः प्रभाते जाया प्रति कन्दमाल्यं वनाय पीत वत्सा.
वत्साम् पीतप्रतिबद्धवत्साम्
वत्साम् द्वितीया. वनाय
चतुर्थी.
वाट्
एल्स् इस् देर् इन् द्वितीया?
धेनुम्
एण्ड् वन् मोर् माल्यां.
माल्याहितगन्धमाल्यां.
All of them are visheshanas to the dhenu. Jaya pratigrahita gandhamalyam pita pratibaddha vatsam dhenum mocha. That is the object. Then tritiya. Tritiya nasti.
Chaturthi nasti. Vanaya.
Vanaya iti chaturthi. Panchami nasti. Shashti.
Shashti prajanam.
Prajanam.
प्रजानाम् एण्ड् ऋषेः.
ऋषेः सम्यक्. प्रजानां ऋषेः. प्रजानाम् अधिपः ऋषेः धेनुम्. सप्तमी.
प्रभाते.
प्रभाते सम्यक्.
सप्तमी.
एण्ड् देन् अव्यय.
अथ.
अथ इति अव्ययम्. सम्यक्. सो क्रियापदं मुमोच इति. सो कासु कासु विभक्तिषु पदानि सन्ति इति ज्ञातम्. अथ इति अव्ययम्. ओके. सो वन्स् वी हाव् द विभक्तीस् इट् इस् ईज़ी टु रिलेट्. ओके. एस् यु केन् सी एव्रिथिङ्ग् इन् प्रथमा. यु हाव् अधिपः, हि इस् द कर्ता. यशोधन इस् अ विशेषण. धेनु इस् द कर्म. वाट् इस् द प्लेन् सेण्टेन्स्? अधिपः धेनुं मुमोच. राजा धेनुं त्यक्तवान् इति वाक्यम्. अनन्तरम् अन्यत् सर्वं पूरणीयम्. अग्रिमपदे तदेव कुर्मः. आकाङ्क्षाक्रमेण अन्वयः प्रतिपदार्थः. कः कर्तुमिच्छति? महादेवन् महोदय.
अन्वयः अथ
न आकाङ्क्षाक्रमेण कुर्मः. अन्ते अन्वयं कुर्मः. क्रियापदं
मुमोच.
मुमोच इत्युक्ते किम्?
किं मुमोच? धेनुं मुमोच.
कः मुमोच?
कः मुमोच? अधिपः मुमोच. अधिपः यशोधनः मुमोच.
यशोधनः कीदृशः अधिपः? यशोधनः
अधिपः. यशोधनः अधिपः मुमोच.
केषामधिपः?
केषामधिपः? प्रजानामधिपः यशोधनः धेनुं मुमोच.
कस्य धेनुं?
कस्य धेनुं? ऋषेः धेनुं.
कीदृशीं धेनुं?
कीदृशीं धेनुं? जाया प्रतिग्राहितगन्धमाल्यां पीत प्रतिबद्धवत्सां धेनु मुमोच
सम्यक् कदा मुमोच
कदा मुमोच प्रभाते मुमोच
उत्तमं किमर्थं मुमोच एवम् आकाङ्क्षा क्रमः एषः तत्र प्रथमं किमस्ति मुमोच सर्वदा आदौ क्रियापदं स्वीकरणीयं ततः पूर्वं सम्बन्धशब्दः देर् आर् सम् वर्ड्स् यूजुवलि अथ आर् ततः विच् कनेक्ट् द प्रीवियस् श्लोक वित् दिस् श्लोक ओके सो यूजुवलि अथ ततः अनन्तरम् इत्यादि सो वी टेक् देम् फस्ट् बिकास् इट् इस् कनेक्टिङ्ग् द प्रीवियस् श्लोक टु दिस् सो अथ इत्युच्यते अथ इत्यस्य सामान्यतः अनन्तरम् कस्मादनन्तरम् एतस्मात् पूर्वं किं जातम् इति चेत् दिलीपः सुदक्षिणया सह तत्र वसिष्ठाश्रमे निशां निनाय रात्रिं यापितवान् इति पूर्वतनसर्गस्य अन्तिमः श्लोकः प्रथमसर्गस्य निशां निनाय अतः इदानीम् अथ इत्यस्य निशानयनानन्तरं रात्रेः निर्गमानन्तरं सो आफ्टर् स्पेण्डिङ्ग् द नैट् इत्यर्थः ततः किं कृतवान् मुमोच मुमोच मुक्तवान् उत्सृष्टवान् रिलीस्ड् इत्यर्थः कः मुमोच अधिपः अधिपः ईश्वरः अथवा स्वामी इत्यर्थः केषाम् अधिपः प्रजानाम् अधिपः जनानां स्वामी राजा इत्यर्थः प्रजानाम् अधिपः इत्यस्य राजा इत्यर्थः जनेश्वरः कीदृशः सः अधिपः यशोधनः यशः धनं यस्य सः यशोधनः तस्य सम्पत्तिः यशः कीर्तिः एव सम्पत् उत्तमकीर्तिः यश इस् फेम् सो ही हु कन्सिडर्ड् फेम् इट्सेल्फ् एज़् हिस् वेल्त् यः कीर्तिमेव सम्पदं मनुते स्म तादृशः राजा मुक्तवान् मुमोच यशोधनः प्रजानामधिपः मुमोच अग्रे कां मुमोच धेनुं गां मुमोच कस्य धेनुं ऋषेः गुरोः वसिष्ठस्य धेनुं नन्दिनीं मुमोच कीदृशी सा धेनुः इति विशेषणद्वयमस्ति जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्सां जाया प्रतिग्राहित गन्धमाल्यां जाया पत्नी इत्यर्थः सो तया प्रतिग्राहित गन्धमाल्यां पत्न्या सुदक्षिणया गन्धपुष्पादिभिः कृतसपर्यां सपर्या इत्युक्ते पूजा सुदक्षिणा धेन्वाः पूजां करोति गन्धं माल्य इत्युक्ते गार्लेण्ड् गन्ध इस् the sandal or the fragrant this thing so in puja samanyatah yada go puja kriyate tatra gandha pushpadibhih puja kriyate atah patnya sudakshinaya gandha pushpadibhih krita saparyam so jaya pratigrahita gandhamalyam means so he released the cow which was made to accept the gandha and malya that is fragrance and flowers by his wife so sa pujam karoti ityarthah asya padasya itopi agre vyakhyane pashyamah punah kidrishim anyadapi visheshanam asti dhenum ityatra pita pratibaddha vatsam vatsah tasyah vatsah पीतः नाम क्षीरं पीतवान् प्रतिबद्धः अनन्तरं सः बद्धः क्षीरपानेन सन्तृप्तवत्सकाम् सो द काफ् ड्रेङ्क् एस् मच् मिल्क् एस् इट् वाण्टेड् सो द काफ् इस् हेपी मीन्स् द मदर् इस् हेपी तदर्थमेव एतद् विशेषणं दीयते. यदा वत्सः तुष्टः अस्ति तदा माता अपि सन्तुष्टा इति बोधयति. पीतप्रतिबद्धवत्साम्, यदि वत्सस्य क्षीरपानं विना धेनुः नीयते तदा धेन्वाः अपि क्लेशः भवति, वत्सस्य अपि क्लेशः. अतः आदौ वत्सः क्षीरं पीत्वा सः सुरक्षिततया गोष्ठे बद्धः, तदनन्तरं धेनुं सः अरण्यं नेतुम् अरण्यं गन्तुं मुक्तवान् इत्यर्थः. पीतप्रतिबद्धवत्सां धेनुम् कस्मै मुमोच? वनाय. अरण्यं गन्तुं मुमोच. कदा? प्रभाते, प्रातःकाले. इदानीम् अन्वयः पूर्णतः कथं भवति. अथ यशोधनः प्रजानाम् अधिपः, प्रभाते जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्सां ऋषेः धेनुं वनाय मुमोच इति अन्वयः. कः अर्थः? निशां विनीय, हैविंग स्पेंट द नाइट इन वसिष्ठस हर्मिटेज, प्रातःकाले इन द मॉर्निंग कीर्ति संपदा युक्तः जनेश्वरः दिलीपः. सो द किंग दिलीप हु कंसिडर्ड फेम इटसेल्फ एज हिज वेल्थ, सो सः तादृशः दिलीपः पत्न्या सुदक्षिणया गंधपुष्पादिभिः कृतसपर्याम क्षीरपानेन संतृप्तवत्सकां गुरोः वसिष्ठस्य गां नन्दिनीम् अरण्यं गन्तुम् उत्सृष्टवान्. सो दिलीप रिलीज्ड, मुमोच रिलीज्ड द कौ धेनुं वनाय टु गो टु द फॉरेस्ट टु ग्रेज. ओके, एंड हाउ वाज दैट कौ? इट वाज द कौ ऑफ हिज प्रिसेप्टर वसिष्ठ. So his wife Sudakshina had worshipped the cow with Gandha, Malya, etc. And the calf had the mother's milk and it was securely tied up. So after this, the king released the cow. Ityarthaha. Avagatam? Kopi prashna hasti? Arthasya avagamane? दिलीपशब्दस्य का व्युत्पत्तिः इति पृच्छ्यते. दिल्लीनगरस्य पालकत्वेन इति पठितवती इति तत्तु प्रायेण असम्भवम्. यतोहि दिल्ली अथवा देहलीनगरं तु इन्द्रप्रस्थनाम्ना पाण्डवानां काले निर्मितम् इत्येव प्रसिद्धिः. तस्य तन्नाम तु तदा तु निश्चयेन न आसीत्. शब्दस्य व्युत्पत्तिं न जानामि, अहं दृष्ट्वा वदामि. दिलीपः इति नाम्नः काव्युत्पत्तिः इति अस्तु. अग्रे अस्य श्लोकस्य व्याकरणांशान् पठामः. पदशः प्रथमं पदमस्ति अथ. अथ इति तु अव्ययम् अस्ति. अग्रे प्रजानाम्, एकैकशः प्रयत्नं कुर्वन्तु, यावत् जानन्ति तावद् वदन्तु, अनन्तरं पश्यामः. अविनाश वैद्य महोदय, प्रजानाम्. अन्म्यूट करणीयम्.
हेलो, दिस इज अथ इज अव्ययम्. प्रजानाम् इज षष्ठी, इट इज अ विशेषणम् अधिप.
ओके, षष्ठी विभक्ति. किम लिंगम?
षष्ठी विभक्ति, इट इज प्लुरल, बहुवचनम्.
बहुवचनम्. लिंगम?
लिंगम पुल्लिंग.
प्रजा?
प्रजा, प्रजा इज सॉरी इट इज स्त्रीलिंग.
स्त्रीलिंगम. किम अंतम?
ప్రజా.
వాట్ ఇస్ ద లాస్ట్ లెటర్?
ఆకారాంత స్త్రీలింగ బహువచన
షష్ఠీ విభక్తి బహువచన. సమ్యక్. సో ప్రజానాం, సో దిస్ పోర్షన్ ఇస్ వెరీ ఇంపార్టెంట్ కోవిద భాగే. ఏతద్ వక్తవ్యం, ప్రత్యేకం సుబంతః అస్తి చేత్ అంతః లింగం వచనం విభక్తిః తద్ జ్ఞాతవ్యం. క్రియాపదం అస్తి చేత్ ధాతుః లకారః పురుషః వచనం ఇతి జ్ఞాతవ్యం. సో ప్రజానాం ఇతి ఆకారాంతః, ఎక్స్క్యూజ్ మీ జస్ట్ వన్ మూమెంట్. ప్రజానాం ఇతి ఆకారాంతః స్త్రీలింగః షష్ఠీ విభక్తౌ బహువచనం. ఓకే, తత్ర అమరకోశం పశ్యామః చేత్ ప్రజా స్యాత్ సంతతౌ జనే ఇతి అమరకోశః. ప్రజా శబ్దస్య అర్థద్వయం అస్తి. ఏకం తు సంతతిః, సంతతిః నామ పుత్ర పుత్ర్యః, పుత్రః అథవా పుత్రీ. సంతతిః ఇత్యర్థః అస్తి. జనః నామ సిటిజన్స్, సబ్జెక్ట్స్ ఇత్యర్థః అపి అస్తి. సో చైల్డ్ ఇత్యర్థః అపి అస్తి. జనే జనః, జనాః, ప్రజాః ఇత్యుక్తే యథా రాజా తథా ప్రజాః ఇతి కథ్యతే. ప్రజాః ఇత్యస్య సబ్జెక్ట్స్ ఇత్యర్థః అపి అస్తి. అత్ర ప్రజానామధిపః ఇత్యుక్తే జనానామధిపః ఇత్యేవ అర్థః. యతో హి దిలీపస్య సంతతిః నాస్తి. అతః ప్రజానామధిపః ఇత్యత్ర జనః ఇత్యర్థః ఏవ అస్తి. బట్ ద కవి ఆల్సో ఇంటెలిజెంట్లీ ఇండికేట్స్ దట్ హీ విల్ హ్యావ్ ప్రజా. ఓకే, పుత్రః భవిష్యతి ఇతి అనేన సూచ్యతే. ఓకే, సో ప్రజా ఇతి ప్రజానాం ఆకారాంతః స్త్రీలింగః షష్ఠీ విభక్తౌ బహువచనం. అగ్రే అధిపః, అధిపః గీత భగిని.
అకారాంత పుల్లింగ ప్రథమ విభక్తి ఏకవచనం.
సమ్యక్. అధిపః ఇది అకారాంతః పుల్లింగః ప్రథమ విభక్తౌ ఏకవచనం. అధిప ఇది ప్రాతిపదికం. అధిభూర్ నాయకో నేతా ప్రభుః పరివృఢః అధిపః ఇతి అమరకోశే అస్తి. అతః అధిభూః నాయకః నేతా ప్రభుః పరివృఢః అధిపః. ఆల్ దీస్ ఆర్ సినానిమ్స్, పర్యాయ పదాని భవంతి. అగ్రే ప్రభాతే జయశ్రీ భగిని.
ప్రభాత నపుసకలింగ అకారాంత శబ్ద సప్తమి విభక్తి ఏకవచనం.
సమ్యక్. అకారాంతః నపుంసకలింగః ప్రభాతం ఇతి సప్తమి విభక్తౌ ఏకవచనం. ప్రత్యూషః అహర్ముఖం కల్యం ఉషః ప్రత్యుషసీ అపి ప్రభాతం చ ఇతి అమరకోశః. ప్రభాతం ఇత్యస్య ప్రత్యూషః, అహర్ముఖం, కల్యం, ఉషః, ప్రత్యుషః ఇత్యేవం పర్యాయపదాని సంతి. సో ఇట్ ఇస్ డాన్. ఓకే, అట్ డాన్ ఇత్యర్థః. జాయా ప్రతిగ్రాహిత గంధమాల్యాం చంద్రశేఖరన్ మోనే.
జాయా ప్రతిగ్రాహిత గంధమాల్యాం ఆకారాంత స్త్రీలింగ రూపం ద్వితీయ ఏకవచనం.
ఆకారాంతః स्त्रीलिङ्गः द्वितीया विभक्तौ एकवचनं माल्याम् इति धेनोः विशेषणं समासः अत्र समासः अस्ति
अत्र गन्धमाल्याम् अस्तु अत्र बहुव्रीहि समासः इति अस्ति इति मन्ये
बहुव्रीहिः फैनलि बहुव्रीहिः एकः अंशः यत्र एवं बहवः अवयवाः सन्ति सो इफ् देर् आर् फोर् वर्ड्स् इट् यूजुवलि मीन्स् दट् देर् आर् त्री समासस् ओके यु हव् टु गो इन् त्री स्टेप्स् बिकास् देर् आर् फोर् वि टेक् टु अट् अ टैम् सो त्रयः समासाः कर्तव्याः
अत्र गन्ध माल्या गन्धं च माल्यं च माल्यं
किं भवति
द्वन्द्वसमासः
गन्धमाल्ये गन्धः च माल्यं च गन्धमाल्ये सम्यक् द्वन्द्वसमासः
जाया प्रतिग्राहित जायया प्रतिग्राहिता
प्रतिग्राहिते जायया प्रतिग्राहितं जाया प्रतिग्राहितम् अत्र तु द्वयमस्ति इत्यतः जायया प्रतिग्राहिते जाया प्रतिग्राहिते कः समासः
तृतीया तत्पुरुषसमासः
तृतीया तत्पुरुषः सो गन्धश्च माल्यं च गन्धमाल्ये इति द्वन्द्वः जायया प्रतिग्राहिते जाया प्रतिग्राहिते इति तृतीया तत्पुरुषः इदानीम् उभयं योजनीयम्
प्रतिग्राहिते
गन्धमाल्ये
ययासा
सम्यक् यया सा जाया प्रतिग्राहिते गन्धमाल्ये यया सा ताम् इति अग्रे अतः जायया प्रतिग्राहिते सो मेड् टु एक्सेप्ट् बै द वैफ् इत्यर्थः तृतीया तत्पुरुषः जायया प्रतिग्राहिते जाया प्रतिग्राहिते गन्धश्च माल्यं च गन्धमाल्ये इति द्वन्द्वसमासः जाया प्रतिग्राहिते गन्धमाल्ये यया सा इति बहुव्रीहिः जाया प्रतिग्राहितगन्धमाल्या इति आकारान्तः शब्दः ताम् इति द्वितीया विभक्तिः सम्यक् अत्र जाया इत्यस्ति जाया इत्यस्य पत्नी इत्यर्थः भार्या जायाथ पुंभूम्नि दाराः स्यात् इति अमरः भार्या जाया इति पर्यायपदं पत्नी इत्यर्थः इतोपि पूर्वं सन्ति कानिचन पदानि पुंभूम्नि दाराः अस्य विषये बहुभिः ज्ञातं स्यात् विशेषः संस्कृतस्य दाराः इति शब्दः पुल्लिङ्गे बहुवचनं किन्तु पत्नी इत्यर्थः रघुवरधर्मदारान् इति भोजः प्रयुङ्क्ते रघुवरस्य धर्मपत्नीम् इत्यर्थः किन्तु दार शब्दः पुल्लिङ्गे नित्यं बहुवचनान्तः तदपि अमरकोशात् ज्ञातुं शक्यते पुं भूम्नि दाराः दाराशब्दः दाराः इति पुल्लिङ्गे भूमन् इत्युक्ते बहुवचने एव भवति इति यत्र विशेषः भवति तदपि अमरकोशे उच्यते अस्तु जाया प्रतिग्राहितगन्धमाल्यं वनाय वनाय बहु सरलम् राधा
भगिनी
अकारान्तः नपुंसकलिङ्गः चतुर्थी विभक्तौ एकवचनं वनाय
वनाय पर्यायपदं
अरण्याय सत्यम् अटव्यरण्यं विपिनं गहनं काननं वनम् इत्यस्ति मया अत्र न योजितं किन्तु अटवी अरण्यं विपिनं गहनं काननं वनम् इत्यादि पर्यायपदानि सन्ति सम्यक्. अत्र कश्चित् विशेषः अस्ति, चतुर्थ्याः प्रयोगः व्याकरणविशेषः. तुमुन्नर्थे चतुर्थी इति वदामः. तत्र वनाय इत्यस्य वनं गन्तुं मुमोच इति. तत्र कानिचन उदाहरणानि पश्यामः. फलेभ्यः आपणं गच्छति. हि गोस् टु द शाप् फार् फार् फ्रूट्स् इति वदामः. तत्र फलानि आनेतुं गच्छति इत्यर्थः. सो इट् इम्प्लैज् इन् आल् सच् केसस् द चतुर्थी विभक्ति इम्प्लैज् अ तुमुन्नन्त. तुमुन् नास्ति किन्तु तस्मिन्नर्थे चतुर्थी इति प्रयोगः अस्ति. ओके, भिक्षायै आगतः इत्युक्ते हि हेस् कम् फार् भिक्षा. भिक्षां प्राप्तुम् आगतः इत्यर्थः. धनाय गृहं विक्रीणीते. हि सेल्स् द हौस् फार् मनी. तत्र धनं प्राप्तुं, धनं सम्पादयितुं गृहं विक्रीणीते. विवाहाय प्रस्थितः. So this is debatable. So if he is going for somebody else's wedding, vivaham drashtum prasthitaha. Sasyaiva vivaha chet, vivaham kartum prasthitaha iti bhavati. Kintu etadrishasthaleshu yatra chaturthi asti, tatra vastutaha tumun arthaha asti. Tadarthe chaturthi iti vyakhyane mallinathaha api kathayati. Ayam vyakarana vishesha. Vanaya mumocha. पीत प्रतिबद्धवत्साम्. ओके, अत्र बहूनां जाया प्रतिग्राहितगन्धमाल्याम् इत्यत्र सन्देहः अस्ति. सत्यं तत् यदा व्याख्यानं पठामः तत्र इतोपि स्पष्टतरं भविष्यति. अनन्तरम् एतेषां प्रश्नानाम् उत्तरं दास्यामि. यतोहि सम्यक् वदति तत्र मल्लिनाथः कथम् इति. हा, ओ मया एव उक्तं, क्षम्यताम्. पीत प्रतिबद्धवत्साम् महादेवन् महोदय.
वत्साम् द्वितीया विभक्ति, आकारान्त स्त्रीलिङ्ग, आकारान्त स्त्रीलिङ्गशब्दः, एकवचनं.
सम्यक्. आकारान्तः स्त्रीलिङ्गः द्वितीया विभक्तिः एकवचनम्. पीत प्रतिबद्धवत्साम् इति समासः.
प्रतिबद्धः, सोरि, पीतः प्रतिबद्धः, पीतः च प्रतिबद्धश्च पीतप्रतिबद्धः. पीतप्रतिबद्धः वत्सः यस्याः सा. पीतप्रतिबद्धवत्सा ताम्.
सम्यक्. कः समासः?
पीतः च प्रतिबद्धश्च इस् द्वन्द्वसमासः.
वदतु वदतु, अग्रे वदतु अनन्तरम्.
पीतप्रतिबद्धः वत्सः यस्याः इस् बहुव्रीहिः.
इदानीं पीतप्रतिबद्धः, तत्र रामश्च लक्ष्मणश्च रामलक्ष्मणौ द्वन्द्वसमासे सर्वदा द्वौ पदार्थौ भवतः. अत्र पीतः प्रतिबद्धः इति द्वौ वा एकः एव वा?
एकः क्रिया तु
क्रियाद्वयमस्ति. पदार्थः कः? पीतः कः? वत्सः.
वत्सः एव प्रतिबद्धः अपि वत्सः एव
अपि वत्सः. अतः सामानाधिकरण्यम्. अतः अत्र कर्मधारयसमासः. सो द डिफरेन्स् इस् द्वन्द्व इस् वेन् देर् आर् टु पदार्थस्. वेन् इट् इस् द सेम् पदार्थ इट् इस् कर्मधारयसमासः. ह्यः वस्तुतः अयं प्रभेदः अस्माभिः न दृष्टः. चिन्ता मास्तु. विशेषण उभयपदकर्मधारयः इति ह्यः वर्गे उक्तम्. पीतः प्रतिबद्धः द्वयमपि वत्सस्य विशेषणम्. पूर्वं पीतः, पश्चात् प्रतिबद्धः. आदौ सः पीतवान्, अनन्तरं सः बद्धः. पीतः प्रतिबद्धः इति విశేషణ ఉభయపద కర్మధారయ ఉభయమపి వత్సస్య విశేషణం పూర్వం పీతః పశ్చాత్ ప్రతిబద్ధః ఏతత్తు సయేవ ఇతి బోధయితుం పూర్వం పశ్చాత్ ఇతి దీయతే వత్సుతః పీతః చ అసౌ ప్రతిబద్ధః చ యథా కర్మధారయ సమాసే వదామః తథా ఏవ పీతశ్చ అసౌ ప్రతిబద్ధః చ తత్ర పూర్వో పూర్వాపర్యం అస్తి తస్య సమాసస్య నియమే అతః పూర్వం పీతః పశ్చాత్ ప్రతిబద్ధః పీత ప్రతిబద్ధః కర్మధారయ సమాసః పీత ప్రతిబద్ధః వత్సః యస్యాః సా హూస్ కాఫ్ డ్రాంక్ అండ్ వాస్ టైడ్ ప్రతిబద్ధ ఇత్యత్ర సమాసః నాస్తి ప్రతి ఇతి ఉపసర్గః బంధధాతోః ప్రతిబద్ధ ఇతి సో ప్రతిబద్ధ ఇస్ అ సుబంత కృదంతం క్త ప్రత్యయాంతం సో పీతః ప్రతిబద్ధః తాం ఇతి అంతే ద్వితీయా విభక్తిః పీత ప్రతిబద్ధ వత్సాం యశోధనః సుధా భగిని
యశోధనః ఇస్ అకారాంత పుల్లింగ శబ్ద ప్రథమా విభక్తి ఏకవచన
అకారాంత పుల్లింగ ప్రథమా విభక్తి ఏకవచనం సమాసః
యశ చ ధన ఐమ్ నాట్ క్లియర్
ప్రయత్నం కరోతు కిం
యశశ్చ ధనశ్చ
హీ హూ హ్యాస్ యశస్ యాజ్ హిస్ వెల్త్
యశ ఇతి ధన యశ ఇతి ధన
యశః హీ హూ హ్యాస్ బహువ్రీహిః
ఆమ్ సత్యం
యశః ధనం
యశః ధనః యస్య సః
యస్య సహ సమ్యక్ యశః ధనం యస్య సహ హీ హూస్ వెల్త్ ఈస్ కీర్తి ఇత్యర్థః యశః ధనం యస్య సహ ఇతి బహువ్రీహి వి క్యాన్ హావ్ అ కర్మధారయ దేర్ యశః ఏవ ధనం యశో ధనం ఇతి భవతి యథా విద్యా ఏవ ధనం విద్యా ధనం యశః ఏవ ధనం యశో ధనం ఇతి భవతి అత్ర సహ అర్థః న వివక్షితః మయా పునః పునః ఉచ్యతే సమాసే ప్రసంగే యశోధన ఇస్ ద కింగ్ యశోధన ఇస్ నీదర్ ఫేమ్ నార్ వెల్త్ రైట్ సో ద అర్థ ఇంటెండెడ్ హియర్ ఇస్ ఇట్ ఇస్ అ విశేషణ టు ద అధిపః యశోధన ప్రజానాం అధిపః సో యశోధన ఇస్ అన్య పదార్థ ఇట్ ఇస్ గివింగ్ అ సెన్స్ విచ్ ఇస్ డిఫరెంట్ ఫ్రమ్ యశస్ అండ్ ఆల్సో డిఫరెంట్ ఫ్రమ్ ధన దట్ ఇస్ వై హియర్ ఇట్ ఇస్ అ బహువ్రీహి సమాస And the linga also will give a clue because dhana is napumsaka linga but we are using in pullinga so that change happens during bahuvrihi okay so agre bahuvrihi samasasya adhyayanam api yada kurmaha tada itopi spashtam bhavati yashaha dhanam yasya saha yashodhanaha iti bahuvrihi so yashaha eva dhanam yashodhanam iti karmadharayaha asti atra karmadharayaha na because we are not talking about wealth here we are talking about the king atah atra bahuvrihi samasah yashah kirtih samajnyacha iti amarakoshe asti kirtih samajnya iti yashasah paryaya pade dhenum dhenum వదతి వా రఘుపతి ఆచార్య మహోదయ యు హావ్ టు అన్మ్యూట్ యువర్ సెల్ఫ్
ధేనుః ధేనుః ధేనుం ద్వితీయా విభక్తి ధేనుః ఉకారాంత స్త్రీలింగ ఏకవచనం
సమ్యక్ ఉకారాంతః స్త్రీలింగః ద్వితీయా విభక్తిః ఏకవచనం ధేనుం ఇతి ధేను స్యాత్ నవసూతిక సో ధేను ఇస్ నాట్ జస్ట్ అ కౌ ఓకే ఈవెన్ దో వి నార్మలీ యూజ్ ధేనుః గౌః ఇతి పర్యాయత్వేన ఉపయుజ్యతే ధేను ఇస్ నాట్ జస్ట్ అ కౌ धेनुः स्यात् नवसूतिका दट् विच् हेज् जस्ट् गिवन् बर्त् दट् इस् वै यु आल्सो हेव् द वत्स अ वेरि स्माल् काफ् सो धेनु इस् अ कौ विच् हेज् रीसेण्ट्लि गिवन् बर्त् सो दट् विच् हेज् अ काफ् विच् इस् स्टिल् ड्रिङ्किङ्ग् मिल्क् तादृशी एव धेनुः इति उच्यते धेनु स्यात् नवसूतिका इति अमरकोशे ऋषेः मोहन महोदय
हरि ओम् ऋषेः षष्टी विभक्ति ऋकारान्त पुल्लिङ्गशब्द
वाट् इस् द शब्द प्रातिपदिकं किम् ऋषि
ऋषि
किमन्तम्
ईकारान्त
इकारान्तः इकारान्तः पुल्लिङ्गः
पुल्लिङ्गः
षष्ठी विभक्तिः एकवचनम् ऋषेः सम्यक् सो ऋषि शब्दस्य अमरकोशे ऋषयः सत्यवचसः इत्यस्ति बहु इण्टरेस्टिङ्ग् ऋषिशब्दस्य निष्पत्तिः बहुधा दृश्यते ऋषयः सत्यवचसः इति अमरः यस्य वचनं सर्वदा सत्यं भवति सः ऋषिः इति मुमोच रामनाथन् महोदय
मुमोच लोट्लकार प्रथम एकवचन लिट् लकार प्रथम एकवचनं
धातुः
न जानामि गस्वत् मुम् धातु
मुच्
धातु
सम्यक् चिन्ता नास्ति मुच् धातुः लिट् लकारः परस्मैपदे प्रथमपुरुषः एकवचनम् सो लिट् लकार इस् द वन् विच् इण्डिकेट्स् पास्ट् भूतकालः परोक्षभूतः सो भूतकाल विच् यू हव् नाट् सीन् आर् द पोयेट् हेज् नाट् सीन् सो यूजुवलि फार् द लाङ्ग् पास्ट् इवेण्ट्स् वि यूस् लिट् लकार परोक्षभूतकाले लिट् लकारः मुच् इति धातुः तस्य मूलरूपं भवति मुच्ल् मोक्षणे इति धातोः मूलरूपम् ओके एवं च सर्वेषां शब्दानां व्याकरण अंशाः अधीताः वि आर् आल्रेडी 10 मिनिट्स् बियाण्ड् टैम् इफ् यु आर् ओके ऐ वुड् लैक् टु एक्स्टेण्ड् फार् 10 मोर् मिनिट्स् यतोहि अस्य श्लोकस्य वा एतत् समापयामः इति इच्छा अस्ति यदि समयः अतिवर्तते कृपया गत्वा यु केन् रेफर् टु द रेकार्डिङ्ग् लेटर् इफ् इट् इस् गेटिङ्ग् लेट् ऐ नो दट् इन् सम् प्लेसस् एस्पेशलि इट्स् वेरि लेट् आल्रेडि कृपया क्षम्यताम् एतत् समापयितुम् इच्छामि अतः मध्ये त्यागः मास्तु इति अत्र लिट्लकारस्य विषये किमपि रेफरेन्स् अस्ति वा इति चेत् अग्रे वक्ष्यामि प्रायः अन्यत्र कदाचित् यतोहि अत्र लिट्लकारस्य अध्ययनं न कृतं स्यात् अहं इन् वन् आफ् द नेक्स्ट् क्लासस् ऐ विल् गिव् यु यदा पुनः अग्रे लिट्लकारस्य प्रयोगः भवति तदा लिट्लकारस्य विषये किञ्चित् वक्ष्यामि मुच् धातुः उभयपदी सत्यम् अत्र परस्मैपदप्रयोगः किन्तु मुञ्चति मुञ्चते मुञ्चे मुञ्चति इति तु परस्मैपदी एव इति मम स्मरणे अहं पश्यामि अत्र तु परस्मैपदस्यैव रूपं सन्देहः नास्ति आत्मनेपदम् अस्ति वा इति द्रष्टव्यं पश्यामि अन्तिमः भागः अलङ्कारः छन्दः तत्र अलङ्कारे कोऽपि विशेषः नास्ति सामान्यतः वृत्त्यनुप्रासः व्यञ्जनानाम् आवृत्तिः तत्र प्र इति बहुवारम् अस्ति प्रजानां प्रभाते प्रतिग्राहित प्रतिबद्ध इति तकारः बहुवारम् अस्ति त प्रतिग्राहित पीत प्रतिबद्ध वत्स इत्यादि धकारस्य इत्येवं व्यञ्जनानाम् आवृत्तिः अस्ति इत्यतः वृत्त्यनुप्रासः अलङ्कारः अर्थालङ्कारः विशिष्य नास्ति अत्र वृत्तस्य नाम उपजातिः इति कथ्यते. अस्मिन् सर्गे सर्वेषु श्लोकेषु अन्तिमं श्लोकं विहाय सर्वेषु श्लोकेषु उपजातिः इति वृत्तम्. अनन्तरोदीरितलक्ष्मभाजौ पादौ व्यदीया उपजातयस्ताः इति लक्षणं छन्दोवर्गे पश्यन्ति चेत् तस्य विस्तृतं विवरणं लभ्यते. सामान्यज्ञानार्थम् इन्द्रवज्रा उपेन्द्रवज्रा एतयोः वृत्तयोः मिश्रणम् उपजातिः इति कथ्यते. इन्द्रवज्रा उपेन्द्रवज्रा उभयोः एकादश अक्षराणि भवन्ति. एक्चुअली दीस् टु वृत्तास् आर् वेरि सिमिलर्. दे डिफर् ओन्ली इन् द फस्ट् लेटर्. प्रथमे वर्णे एव भेदः. अत्र पश्यन्ति चेत् अथ इत्यत्र अकारः लघुः, जाया इत्यत्र गुरुः, वनाय व इति लघुः, यशोधनो य इति लघुः. यत्र प्रथमवर्णः लघुः तत्र उपेन्द्रवज्र, प्रथमवर्णः गुरुः चेत् इन्द्रवज्र. अन्यत् सर्वं समानं भवति. सो यु हाव् टु कौण्ट् आल् दट् टु डिफ्रेन्शियेट् बिट्वीन् उपेन्द्रवज्र अण्ड् इन्द्रवज्र. यु जस्ट् हाव् टु लुक् एट् द फस्ट् लेटर्. If the first letter is Guru, it is Indravajra. If the first letter is Laghu, it is Upendravajra. So in this shloka, there are three padas in Upendravajra and one in Indravajra. Yatra Ubhayam Asti Tadvrittam Upajatihi iti kathyate. Ataha Asmin shloke Upajatihi Vrittam. Okay. अग्रे व्याख्यानम् अस्ति. व्याख्याने अधिकं नास्ति. द्वित्राः अंशाः ज्ञातव्याः. अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः, प्रजेश्वरः राजा, प्रभाते प्रातःकाले, जाया प्रतिग्राहितगन्धमाल्याम्, जायया सुदक्षिणया प्रतिग्राहयित्र्या, प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा, ताम् सः विग्रहं प्रदर्शयति. अत्र निजन्तप्रयोगः. किं धेनुः गन्धमाल्ये प्रतिगृह्णाति. सो द कौ एक्सेप्ट्स् गन्ध एण्ड् माल्य. प्रतिगृह्णाति इत्यस्य स्वीकरोति इत्यर्थः. धेनुः गन्धमाल्ये प्रतिगृह्णाति. अस्य निजन्तप्रयोगः सुदक्षिणा धेन्वा गन्धमाल्ये प्रतिग्राहयति. प्रतिगृह्णाति, प्रतिग्राहयति, पठति, पाठयति. पठति इस् द प्लेन् धातु. पाठयति इस् वाट् वी काल् निजन्त, अ कासल् वर्ब्. सो अत्र प्रतिगृह्णाति, प्रतिग्राहयति. सो प्रतिग्राहयति इत्यस्य क्तप्रत्यये प्रतिग्राहित. सो धेनुः प्रतिगृह्णाति, सुदक्षिणा धेन्वा प्रतिग्राहयति इति निजन्तः. अतः विग्रहवाक्ये प्रतिग्राहिते किं गन्धमाल्ये यया धेन्वा इति तृतीया अस्ति. तस्य कर्तुः अणिजन्तकर्तुः, निजन्ते तृतीया. अत एव यया गन्धमाल्ये प्रतिग्राहिते. कया? जायया. सो जाया इति कर्त्री. देर् आर् टु एजेन्स् आर् कर्तास् हियर्. वन् इस् धेनु इस् एक्सेप्टिङ्ग् द गन्धमाल्य. The other is Sudakshina is making the Dhenu to accept the Gandhamalya. Ataha Sudakshina iti kartri, Dhenuhu api kartri. So atayeva Jayaya Pratigrahite Gandhamalye Yaya ityatra Tritiya Vibhaktihi eva bhavati, because Dhenu is the kartri for accepting. So the Dhenu accepts made to accept by Sudakshina. Idanim prashnanam uttaram labdham va. Bahubhih prashtam asmin vishaye. It's a slightly complicated samasa. Kintu yada evam nijanta vakyam likhyate, तदा स्पष्टं भवति. अत्र धेनुः संप्रदानं न, अतः चतुर्थी विभक्तिः न भवति. धेनुः कर्त्री, यद्यपि संप्रदानं तत्र प्रतिग्रहणरूपा या क्रिया, तत्र धेन्वाः कर्तृत्वम् अस्ति. सो दिस् इस् नाट् ददाति, दिस् इस् प्रतिगृह्णाति, अतः संप्रदानं न. अवगतम्? अन्यत् किम्? एतत् जाया अपि अपादानं न कर्त्री. सो शी इस् मेकिङ्ग् इट् टु अक्सेप्ट्. अपादानत्वं भवेत् किन्तु अपादानम् अन्यानि कारकाणि भवन्ति इत्यस्ति, अतः कर्तृत्वम् अत्र अस्ति सुदक्षिणायाः, निजन्तकर्तृत्वम्. अतः जायया इत्यत्र अपि तृतीया, यया इति धेन्वाः अपि तृतीया. स्पष्टं स्यात्. अग्रे गच्छामः. पीतप्रतिबद्धवत्साम्, अत्रापि पीत इत्यत्र कश्चित् विशेषः अस्ति. सामान्यतः पीत इति क्तप्रत्ययान्तः कर्मार्थे भवति. किं पीतं? क्षीरं पीतम् इति कर्मार्थे भवति, किन्तु अत्र कर्तृर्थे पीतशब्दः. पीत डस् नाट् मीन् द कौ, द काफ् वास् ड्रङ्क्. सो वत्सः पीतः न, पीतवान् इत्यर्थः. पीतं पानम् अस्य अस्ति इति पीतः, पीतवान् इत्यर्थः. इट् इस् अ स्पेशल् प्रयोग. अर्षादिभ्यः अच् इति विशिष्टः प्रत्ययः अस्ति. पीता गावः भुक्ता ब्राह्मणाः इति महाभाष्ये दर्शनात् मल्लिनाथः भाष्यप्रयोगं दर्शयति. पीतागावः भुक्ता ब्राह्मणाः इत्यत्र ब्राह्मणाः भुक्तवन्तः, गावः पीतवत्यः इति कर्तरर्थः एव. एवमत्र पीतः इत्युक्ते पीतवान्, प्रतिबद्धः वत्सः, यस्याः तां पीतप्रतिबद्धवत्साम्. ऋषेः धेनुं वनाय, वनं गन्तुम्, क्रियार्थोपपदस्य च कर्मणि स्थानिनः इत्यादिना चतुर्थी. तत्र एकं सूत्रमस्ति, मया यदुक्तं तुमुन्नर्थे चतुर्थी भवति इति, इत्युक्ते तुमुनः कर्मपदात् चतुर्थी इति. तत्र सूत्रं भवति क्रियार्थोपपदस्य च कर्मणि स्थानिनः इति, तेन चतुर्थी विभक्तिः. मुमोच मुक्तवान्. अत्र विशेषद्वयं प्रदर्शयति मल्लिनाथः. जाया पदसामर्थ्यात् सुदक्षिणायाः पुत्रजननयोग्यत्वम् अनुसन्धेयम्. सो वेन् अ पोयेट्, एस्पेशली अ पोयेट् लैक् कालिदास इस् रैटिङ्ग्, ही डस् नाट् पिक् वर्ड्स् राण्डम्लि. अत्र जाया प्रतिग्राहित इत्यस्ति. जाया इत्यर्थे भार्या अस्ति. भार्या प्रतिग्राहित गन्धमाल्याम्, पत्नी प्रतिग्राहित गन्धमाल्याम्. ही कुड् हव् यूस्ड् एनी अदर् सिनोनिम्स् आफ् वैफ्, किन्तु जाया इत्येव सः प्रयुङ्क्ते. किमर्थं? पुत्रजननयोग्यत्वम्. सो दे आर् डूयिङ्ग् दिस् फार् प्रोजेनि. सो तस्यां जननयोग्यत्वम् अस्ति इति बोधयितुं जाया इति पदस्य प्रयोगः. तथा हि श्रुतिः, वेदे अस्ति, पतिः जायां प्रविशति गर्भः भूत्वेह मातरं, तस्यां पुनः नवो भूत्वा दशमे मासि जायते. तज्जाया जाया भवति यदस्यां जायते पुनः. सः कश्चित् पुरुषः पुनः पत्न्यां पुत्ररूपेण जायते, अत एव सा जाया इति श्रुतौ एव अस्ति. अतः जायापदस्य बहु विशेषः सः, तदर्थमेव जाया इति पदं प्रयुङ्क्ते कालिदासः. यशोधनः इत्यत्र अपि, यशोधनः इत्यनेन पुत्रवत्ता कीर्तिलोभात् राजानर्हे गोरक्षणे, गोरक्षणं गोपालनरूपं कार्यं राज्ञः अनर्हं, तथापि कीर्तिलाभार्थम् उत्तमपुत्रप्राप्त्या कीर्तिलाभार्थं दिलीपः प्रयतते, अत एव यशोधनः इति विशेषणं दीयते. अस्मिन् सर्गे वृत्तम् उपजातिः अनन्तरोदीरितलक्ष्मभाजौ पादौ व्यदीया उपजातयस्ताः इति उपजातेः लक्षणम् इत्येतत् सर्वमपि मल्लिनाथव्याख्याने अस्ति. अद्य वयं रघुवंशस्य द्वितीयसर्गे प्रथमं श्लोकं दृष्टवन्तः. अथ प्रजानामधिपः प्रभाते जाया प्रतिग्राहितगन्धमाल्यां वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच. अग्रिमशुक्रवासरे अग्रिमः वर्गः समासवर्गः भविष्यति. अग्रिमशनिवासरे रघुवंशस्य अग्रिमं भागं पश्यामः. अत्र अद्य समापयामः. एकः प्रश्नः तत्र जाया पार्ट् केन् यू प्लीस् एक्स्प्लेन् इन् इङ्ग्लिश्. सो द वेद सेस् जाया इस् काल्ड् जाया, इट् इस् फ्रम् द रूट् काल्ड् जन् टु बी बोर्न्. सो द हस्बेण्ड् इस् बोर्न् अगेन् as the son through the wife. So he enters the garbha and he is born again as the wife, and that is why she is called jaya ityarthah. Tajaya bhavati yadasyam jayate punah. So she is called jaya because the pati is born again through her garbha. So that is the significance, and that is why he uses the term jaya for sudakshina, indicating that she has the capacity of bearing a child. Okay. Kshamyatam madhye adya kechana prashnaah tyaktaah syuh. There were quite a few questions. Because of the time, I could not go through all of them. Yadi kopi sandehah asti, you can either email or I'll go through these questions and I'll answer in the next class. Vagartha vivasam pruktau vagartha pratipattaye jagatah pitarau vande parvati parameshwarau gurureva gatir gurumeva bhaje gurunaiva sahasmi namo gurave na guroh paramam shishurasmi gurur matirasti gurau mama pahi guru. Dhanyavada.